गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। सर्वेषां नमस्कारः, सुस्वागतं च। विद्याधरी इति पुस्तकं वयं पठन्तः स्मः। तत्र इदानीं कुत्र स्मः इत्युक्ते, गन्धवती पृथिवी, गन्धवत्वं पृथिव्याः लक्षणम्, अनयोः कः भेदः इति शीर्षकमस्ति। तत्रैव इदानीं वयं स्मः। तत्र पुटसङ्ख्या भवति चत्वारिंशत्। चत्वारिंशत् इत्युक्ते 40, पेज् नम्बर् 40 मध्ये वयं स्मः। ततः किञ्चित् बहिः आगत्य तत्र विशेषणं किं, विशेष्यं किम् इत्यादयः अस्माभिः अधीतम्। अत्र नूतनजनाः अपि सन्ति इति कृत्वा किञ्चित् उपोद्घातरूपेण अहं किञ्चिदिव वदामि। येषां ज्ञानमस्ति तेषां स्मारकं भवति एतत्, येषां ज्ञानं नास्ति अस्मिन् विषये तेषां ज्ञापकं भवति मम इदानीं यदहं वदामि तत्। हा, इदानीं तत्र चिन्तयतु, मम पुरतः एकं वस्तु अस्ति इति चिन्तयतु। तद् किम् इति अहं न जानामि इति स्थितिः। तत्र कोऽपि आगच्छति, अहं तद् वस्तु पश्यन्नस्मि किन्तु तत् किं वस्तु इति अहं न जानामि इति स्थितिः। तत्र कोऽपि अहं पृच्छामि, एषः कः इति कोऽपि अहं पृच्छामि, सः वदति एषः घटः इति वदति। इदानीं मम पुरतः घटः अस्ति, एतद् वस्तुनः नाम घटः इति मया ज्ञातम्, अपि च तस्य आकारमपि मया ज्ञातम्, एषः घटः इति ज्ञानं मया प्राप्तवान् इदानीम्। इदानीम् अग्रिमदिने अन्यत्र पुनः एकवारं तादृश आकाररूपवस्तु अहं पश्यामि। इदानीं तत्र कोऽपि नास्ति, तथापि मयि ज्ञानं वर्तते। कीदृशज्ञानं भवति, कीदृशज्ञानम् इत्युक्ते एषः अपि घटः इति ज्ञानं भवति। इदानीं तत्र अग्रिमदिने यः घटः मया दृश्यते, तत्तु पूर्वस्मिन् दिने यः घटः मया दृष्टः तस्मात् भिन्नः, किन्तु तथापि एषः घटः इति ज्ञानं मयि तद् बोधः जायत्येव। कथम् इति चेत्, तत्र नैयायिकाः एतादृशं वदन्ति, यदा यस्मिन् समये अहम् अद्य एकः घटः पश्यामि, तदा केवलं घटः एव न पश्यामि किन्तु तस्मिन् अन्तर्भूतं घटत्वम् इति धर्मः अपि तेन सह अहं पश्यामि, मया दृश्यते इति नैयायिकानां मतम्। इदानीं यदा अहं घटं पश्यामि तस्मिन् समये एव तस्मिन् विद्यमानः धर्मः घटत्वम् इति धर्मः अपि मया दृश्यते, अतः तत्कारणात् इदानीम् अग्रिमदिने पुनः यदा भिन्नघटः अहं पश्यामि, तस्मिन् घटत्वं यत् पूर्वदिने मया दृष्टं तत्र घटत्वम् अपि पश्यामि इति कृत्वा एव एषः घटः इति अग्रिमदिने अपि मम ज्ञानं अहं ज्ञानं प्राप्तवान् भवति, एषः घटः इति ज्ञानं प्राप्तवान् भवति इति कृत्वा तत्र घटः घटत्वम् इति पदद्वयम् अस्ति। घटः इति यत् यद् वस्तु मम पुरतः अस्ति तस्य नाम घटः, तस्मिन् विद्यमानः एकः धर्मः घटत्वम् इति। एवमेव तत्र मनुष्याः सन्ति, मनुष्येषु विद्यमानधर्मं भवति सामान्यधर्मं, सर्वेषु मनुष्येषु विद्यमानधर्मः भवति मनुष्यत्वम् इति, एवमेव सर्वेषु घटेषु विद्यमान एकः धर्मः भवति घटत्वं, सामान्यधर्मः भवति भवति घटत्वम्, एवमेव पटत्वं मटत्वं पुष्पत्वम् इति, यत्किमपि वस्तु भवति तस्मिन् विद्यमानः एकः धर्मः, यद्धर्मः यः धर्मः सर्वेषु द्रव्येषु भवन्ति, तादृशद्रव्येषु भवन्ति, सजातीयद्रव्येषु भवन्ति, तस्य नामं भवति धर्मः इति। तदेव त्वम् इति प्रत्ययस्य योजनेन धर्मरूपेण वयं वदामः इति अस्ति। अत्र अस्मिन् विषये कस्यापि सन्देहः अस्ति वा? एतत् प्रायः बुद्धम् इति अहं मन्ये, रमाभाई नो चेत्
प्रिया भगिनी।
सम्यक् सम्यक् प्रिया भगिनी, भवती अवगतं वा?
अवगतं
सत्यम्। इदानीं किञ्चित् अग्रे सरेम। इदानीं तत्र घटत्वं, वदतु महोदय। हा नमस्ते नमस्ते महोदय, महोदय मया दृष्टम्, आगच्छन्तु, सुस्वागतम्।
एकं प्रश्नः अस्ति, भवान् उक्तवान् घटे घटत्वम् अस्ति इति एक शब्दं प्रयोगं कृतवान् खलु?
किमिति?
जाति, जाति इति,
जाति, सत्यं।
तत् किञ्चित्
तस्मिन् विषये किञ्चित् वदामि। तत्र नैयायिकानां मतानुसारम् अस्माकं विद्याधर्याम् एव प्रथमपाठः भवति। तत्र ते किं वदन्ति? सप्तपदार्थाः लोके सन्ति, लोके इत्युक्ते जगति, सप्तपदार्थाः सन्ति इति, एकमिति नास्ति, सप्तश्रेणी तैः कृतम् अस्ति। यत्किमपि वस्तु भवति लोके, यत्किमपि वस्तु भवति एकस्मिन् श्रेण्यां, श्रेणी इत्युक्ते केटगरि, केटगरि, एकस्मिन् श्रेण्याम् एतद् भवेत्। इदानीं तत्र सप्तपदार्थाः के इत्युक्ते, तत्र सीमा भगिनी किञ्चित् वदति वा? सप्तपदार्थाः भवती जानाति किल?
द्रव्यगुणकर्म सामान्य समवायविशेष अभावः सप्तपदार्थाः।
सम्यक्। नमस्ते मुरळीमहोदय, आगच्छतु, कृपया म्यूट् मध्ये भवतु। हा धन्यवादः सीमा भगिनी। सप्तपदार्थाः द्रव्य गुण कर्म सामान्य विशेष समवाय अभावाः सप्तपदार्थाः इति नैयायिकैः उक्तम्। तत् प्रथमम् उद्देशितम्, उद्देशितम् इत्युक्ते तादृशं ते स्वीकृतम्। यत्किमपि वस्तु भवति जगति एकस्मिन् श्रेण्यां तत् अन्तर्भूतं भवेत् इति निश्चयेन ते वदन्ति। इदानीं तत्र घटः यद् अस्माकं पुरतः अस्ति, यद् अस्माकं वहितुं शक्यते, तादृशघटः द्रव्यम् इत्यस्मिन् श्रेण्यां भवति, द्रव्यम् इत्यस्मिन् श्रेण्यां भवति। इदानीं घटस्य रूपं भवति किल, तत्र पीतरूपं वा नीलरूपं वा हरितरूपं वा इति, तादृशरूपं भवति किल, रूपम् इत्युक्ते कलर्। तत्तु गुणः इति श्रेण्यां भवति। इदानीं तत्र कन्दुकम् इति स्वीकरोतु, तत्र कन्दुकम् इत्युक्ते बाल् इति अस्ति। कन्दुकं कोऽपि क्षिपति चेत् तत्र कन्दुकम् इतः गत्वा ततः पतति। इदानीं कन्दुकस्य पतनम् इति क्रिया, तादृशक्रिया तत्र द्रव्यगुणकर्म इति श्रेणी अस्ति किल, तस्मिन् अन्तर्भूतं भवति क्रिया। घटः तत्र द्रव्यम् इत्यस्मिन् श्रेण्याम् अन्तर्भूतं भवति, तस्मिन् विद्यमानरूपादिगुणः, रूपादि इति चतुश्चत्वारिंशत् सन्ति, चतुर्विंशतिः गुणाः सन्ति, चतुर्विंशति इत्युक्ते 24 गुणाः सन्ति इति नैयायिकाः स्वीकुर्वन्ति. तत्र अग्रे यदा पाठः अग्रे चलति तदा एतत् सर्वम् अस्माभिः पठ्यते. सो गुणः इति भवति कर्म, पतनं गमनम् इत्यादिकं कर्म कर्मश्रेण्यां भवति. तदनन्तरं द्रव्यगुणकर्म सामान्यम् अस्ति. सामान्यम् इत्युक्ते जातिः, जातिः. इदानीं जातिः इत्युक्ते किं? सर्वेषु एकविधपदार्थेषु द्रव्येषु विद्यमानधर्मः यदस्ति तदेव जातिः इति. इदानीं घटः इति स्वीकुर्मश्चेत् तस्मिन् सर्वेषु घटेषु विद्यमान एकः धर्मः घटत्वम् इति धर्मः, तदेव जातिः भवति इति अस्ति. इदानीं घटत्वम् इति जाति इति श्रेण्यां भवति. तदनन्तरं तत्र समवायः इति अस्ति. अस्मिन् विषये इदानीं मास्तु, समवायः इति सम्बन्धः इति तावद् अवगच्छति चेत् पर्याप्तं भवति. सम्बन्धः, रिलेशन्शिप्. पुनः विशेषः इति अन्यपदार्थः अस्ति. अस्मिन् विषये अपि इदानीं मास्तु. विशेषः इति भिन्नपदार्थः, तत् परमाणवः किल, आटम्स्. तत्र विशेषः इति पदार्थः विद्यते इति तावन्मास्तमेव अवगच्छन्तु. तदनन्तरम् अभावः इति अस्ति. द्रव्यस्य अभावः, गुणस्य अभावः, तादृशम् अभावः सर्वेषु पदार्थेषु वर्तते इति अस्ति. अभावः इत्युक्ते नान् एक्सिस्टेन्स् इति. सप्तश्रेणी श्रेणयः सन्ति. यत्किमपि वस्तु भवति जगति तत्सर्वम् एकस्मिन् श्रेण्यां निश्चयेन भवेत् इति नियमः. अस्तु, इदानीं किञ्चित् अग्रे सरामः. तत्र प्रिया भगिन्या सम्यक्तया वाक्यं निर्मितं भवति. घटत्वं घटे वर्तते इति भगिन्या उक्तम्. इदानीं घटे इति सप्तमी एकवचनरूपम् अस्ति. सप्तमी एकवचनरूपं वयं अस्माभिः प्रयुज्यते चेत् तत्र किं बोधितम् इत्युक्ते अधिकरणम् आधारः बोधितः भवति. इदानीम् अहम् एकं वाक्यं वदामि, भूतले घटः अस्ति इति वाक्यं पश्यतु. इदानीं तत्र प्रिया भगिनी किञ्चित् वदति वा, भूतले घटः अस्ति इत्यस्मिन् वाक्ये भूतलं, तत्र भूतलं किं भवति? प्रिया भगिनी,
प्रश्नः पुनः महोदय.
तत्र भूतले घटः अस्ति इत्यस्मिन् वाक्ये भूतलं घटस्य किं भवति?
अधः भवति.
अधः इत्युक्ते आधारः भवति.
आधारः अस्तु, ओके.
हा, आधारः, आधारः इति पदं तदेव आधारः. भूतलमेव आधारः. किमर्थम् इत्युक्ते घटं भूतलस्य उपरि अस्ति इति कृत्वा भूतलम् आधारः इति वदामः. नैयायिकानां मतानुसारम् आधारः इति पारिभाषिकशब्दः. पारिभाषिक इत्युक्ते टेक्निकल् वर्ड्, पारिभाषिकशब्दः. आधारः, भूतलम् आधारः भवति. यत्र यत्र सप्तमी विभक्ति अस्माभिः प्रयुज्यते तत्र सर्वत्र आधारः एव सूचितः भवति इति सर्वेषां मनसि भवेत्. इदानीं भूतलम् आधारः अस्ति चेत् घटः किं भवति?
आधेयः.
सत्यं, तदेव आधेयः भवति. आधेयः, आधारः, आधेयः, घटः आधेयः. यद् उपरि अस्ति तद् आधेयः भवति, यद् अधः अस्ति तद् आधारः भवति. इदानीम् आधारः, आधेयः इति पदद्वयम् अस्माभिः लब्धम्. इदानीं तयोः मध्ये सम्बन्धः वर्तते. सम्बन्धः वर्तते. किमर्थं तत्र घटं साक्षात् भूतले अस्ति किल, अतः तयोः मध्ये सम्बन्धः वर्तते इति. इदानीं तादृशसम्बन्धः यत्र अस्ति, आधार आदेयभावसम्बन्धः यत्र अस्ति, तत्र नैयायिकाः किं वदन्ति, आधार आधेयभावः अस्ति. कयोः मध्ये? भूतलघटयोः मध्ये आधार आधेयभावः अस्ति इति सामान्यविषयः. वयं सर्वं जानीमः, किन्तु नैयायिकाः किं कुर्वन्ति, इतोपि तत् किञ्चित् अग्रे नयति. आधार आधेयभावः अस्ति चेत् ययोः मध्ये आधार आधेयभावः अस्ति, तयोः मध्ये निरूपकनिरूप्यभावः अस्ति इति नैयायिकाः वदन्ति. निरूप्यनिरूपकभावः अस्ति. इदानीं निरूप्यनिरूपकभावः इत्युक्ते किम्? परिचयः. इदानीम् अहं वदामि भवत्याः कृते, तत्र घटम् आनयतु इति अहं वदामि. चिन्तयतु, घटः किम् इति भवती न जानाति. घटः इत्युक्ते किम् इति भवती न जानाति इति चिन्तयतु. इदानीं घटः इत्युक्ते किम् इति भवती मां पृच्छति. अहं पुनः वदामि भवत्यां प्रति, तत्र नीलरूपे किमपि अस्ति किल वस्तु. इदानीं भवती नीलरूपं जानाति इति चिन्तयतु, किन्तु घटः किम् इति न जानाति. नीलरूपं जानाति. अहं वदामि तत्र नीलरूपं, नीलरूपे एकं वस्तु भवत्याः पुरतः अस्ति, तद् आनयतु इति यदा अहं वदामि, तदा भवती किं करोति? तत्र साक्षात् घटं प्रति गत्वा तद् स्वीकृत्य आनयति. इदानीम् अहं किम् उक्तवान्? नीलरूपेण यदस्ति तद् आनयतु इति. इदानीं नीलरूपं तत्र स्वतन्त्रेण तिष्ठति वा? नास्ति. नीलः इति गुणः, तस्य स्वातन्त्र्यं नास्ति. नीलरूपं सर्वदा किमपि द्रव्ये एव भवति, स्वतन्त्रतया न तिष्ठति इति कृत्वा तत्र नीलः इति गुणः आधेयः, घटः आधारः. इदानीम् आधेयम् उक्त्वा अहम् आधारस्य परिचयं दत्तवान्. भवती आधारः किमिति न जानाति, घटः किमिति भवती न जानाति, किन्तु नीलरूपं जानाति चेत् तत्र नीलरूपेण भवत्याः परिचयं मया दत्तः, घटस्य परिचयं दत्तः, तदेव निरूपणम् इति नैयायिकाः वदन्ति. अवगच्छति किल भगिनि?
नीलघटः अत्र आधारः किम्, आधेयः किम्?
नीलः इति रूपः आधेयः, घटः इति द्रव्यम् आधारः. नीलरूपं कुत्र वर्तते? घटे वर्तते. यथा घटत्वं घटे वर्तते इति भवत्या उक्तं, तथा नीलरूपं घटे वर्तते इति कृत्वा इदानीं घटे इति सप्तमी अस्ति चेत् आधारः भवति. तस्मिन् उपरि यद् अस्ति तत् आदेयः भवति. नीलरूपं घटे वर्तते इति कृत्वा इदानीं नीलरूपस्य अहं तु नीलरूपं स्वीकृत्य यद् वस्तु भवत्याः पुरतः अस्ति तद् आनयतु इति वदनेन घटस्य परिचयं मया दत्तं भवति इति कृत्वा नीलरूपेण आदेयरूपेण आधारः मया निरूपितः. इदानीं चिन्तयतु, विपरीततया अपि परस्परनिरूपनिरूप्यकभावः अस्ति. इदानीं चिन्तयतु, भवती घटं जानाति इति चिन्तयतु. घटं किम् इति भवती जानाति, किन्तु इदानीं नूतन किमपि वर्णः इति अस्ति, नूतन वर्णः कलर् अस्ति यद् भवती न जानाति इति चिन्तयतु. तत्र हरितः इदानीं हरितः इत्युक्ते किम् इति भवती जानाति वा? हरितशब्दस्य अर्थः भवती जानाति वा? अस्तु ग्रीन् एव, किन्तु यदि इदानीं हरित इति शब्दस्य अर्थं भवती न जानाति इति चिन्तयतु, अहं किं वदामि? तत्र घटः आनयतु इति वदनेन भवती किं करोति? तत्र एकः एव घटः, तत् हरितवर्णे अस्ति इति चिन्तयतु, भवती किं करोति? हरितवर्णरूपघटम् आनयति। इदानीम् आधारत्वेन आधेयस्य परिचयं मया दत्तम् इति कृत्वा आधार आधेययोः मध्ये परस्परनिरूप्यनिरूपकभावः अस्ति इति अवगन्तव्यम् इति स्थितिः अस्ति। एतत् नैयायिकाः उपयुज्यन्ते। अस्तु, इदानीं तत्र इतोपि किञ्चित्, इदानीम् आधारः अहं जानामि इति चिन्तयतु, तत्र आदेयः यत् इति वदनार्थम्, इदानीं घटः इति आधारः, तस्मिन् विद्यमानः एकः धर्मः घटत्वम् इति अस्ति, जाति घटत्वम् इति अस्माभिः इदानीमेव अवगतं। तत्र घटत्वम् इति, इदानीं घटत्वं कुत्र वर्तते? घटे वर्तते। घटत्वम् इति आदेयः, घटः इति आधारः इत्यस्मिन् स्थितौ इदानीं तत्र घटः अहं पश्यामि, तत्र विद्यमानधर्मः मया वक्तव्यं चेत् तत्र त्व इति प्रत्ययः, नो चेत् तल् इति प्रत्ययः, नो चेत् शै, प्रत्ययः इत्युक्ते सफिक्स् इति अर्थः। यदा आङ्ग्लभाषायां वदामः तत्र इ आर् इति सफिक्स् अस्ति, गिव् इति एका क्रिया अस्ति, इदानीं कः दास्यति इति चेत् गिवर् इति इ आर् इति सफिक्स् उपयुज्य तत्र गिवर् इति पदम् अस्माभिः निर्माणं क्रियते। तादृशं संस्कृतभाषायामपि त्व तल् श्यै इति प्रत्ययाः उपयुज्य तत्र आदेयः वक्तुं शक्यते। इदानीं घटः अस्ति, तस्मादुपरि विद्यमान एकः धर्मः वक्तव्यं चेत् तत्र घटयोगः त्व इति प्रत्ययं योजयामश्चेत् तत्र घटत्वम् इति आनयति, इति इति शब्दः सिद्ध्यति, पदं सिद्ध्यति घटत्वम्। अतः अत्र किम् अवगन्तव्यम् इत्युक्ते आदेयः ज्ञानार्थम् उपरि गन्तव्यं भवति, अदात् अधस्तात् उपरि गन्तव्यम् आदेयः ज्ञानार्थम्। इदानीम् आधारः ज्ञानार्थं तत्र अधो गन्तव्यं भवति। इदानीं मया उक्तं किल एकं वाक्यं, भूतले घटः अस्ति, अस्मिन् वाक्ये भूतलमेव आधारः, इदानीं घटः इति आधेयः इति अस्ति, इदानीं घटम् आरभ्य अधोगमनार्थं तत्र मतुप् इति प्रत्ययः अस्ति, प्रत्ययः इत्युक्ते प्रिफिक्स् इति मया उक्तं, मतुप् इति प्रत्ययः। इदानीं भूतलम् इति अस्माभिः वक्तव्यमस्ति, किन्तु केवलं भूतलम् इति वदनेन तत्र घटः अस्ति इति अस्माभिः न ज्ञायते। भूतलम् इत्युक्ते तत्र अस्माकं पुरतः यदस्ति तदेव भूतलः इति, भूतलम् इति, किन्तु यस्मिन् उपरि घटः अस्ति तद् वक्तव्यम् इति चेत् तत्र मतुप् इति प्रत्ययः अस्माभिः योजनीयः भवति। इदानीं घटः योगः मतुप् तत्र अधोगमनार्थम् उपरि यदस्ति तत् स्वीकृत्य तेन सह मतुप्रत्ययस्य योजनेन आधारः सिद्ध्यति, घटः योगः मतुप् तत्र रूपं किं भवति इत्युक्ते घटवत् इति रूपं प्रातिपदिकं भवति, घटवत् इति प्रातिपदिकं भवति। हा, घटवत् इति प्रातिपदिकं, तस्य पुल्लिङ्गरूपं घटवत् इति प्रातिपदिकं तस्य प्रथमा विभक्ति पुल्लिङ्गरूपं भवति घटवान् इति. इदानीं भूतलम् इति नपुंसकलिङ्गम् एव, अतः तस्य नपुंसकलिङ्ग रूपं प्रथमा एकवचनं रूपं भवति घटवत् इत्येव. इदानीं घटवत् इत्येन किं बोधितम् इत्युक्ते भूतलमेव उक्तम् अस्ति. भूतलस्य पर्यायपदः अस्ति. पर्यायपदः इत्युक्ते सिनोनिम् भूतलम् इति वदनेन अपि च घटवत् इति वदनेन तत्र समानार्थकौ, द्वयोः अपि समानार्थकौ. भूतलम् इत्युक्ते घटवत् एव. किन्तु इतोपि किञ्चित् बोधः जायते. भूतलम् इति वदनेन तत्र केवलं भूतलम् अस्ति इति अस्माभिः ज्ञानं प्राप्स्यते. इदानीं घटवत् इति वदनेन किं प्राप्स्यते? केवलं भूतलम् इति नास्ति, तस्मिन् उपरि एकः घटः अस्ति इत्यपि अस्माकं ज्ञातुं शक्यते इति अस्ति. अत्र प्रायः एतावत्पर्यन्तं सर्वेषां ज्ञानमस्ति इति अहं चिन्तयामि. आण्ड्रे महोदय आगच्छतु. कोऽपि किमपि उक्तवती वा? नमस्कारः, नमस्कारः. किञ्चित् अहम् इदानीं किं कुर्वन् अस्ति, तत्र नूतनजनाः कोऽपि आगतवन्तः, तेषां कृते किञ्चित् पुनस्मारणत्वेन किञ्चित् उक्त्वा अग्रे गमिष्यन् अस्मि. अस्तु अस्तु, इदानीं तत्र किञ्चित् महोदय वदतु.
एवं सन्देहम् अस्ति.
एकः सन्देहः इति वदतु.
एकः सन्देहः अस्ति. क्वा इतराणि प्रत्ययनामानि किं? क्वा प्रत्ययः?
क्वा इति प्रत्ययं, तल् तल् इति प्रत्ययं, श्यै इति प्रत्ययं, श्यै मूर्धन्यशकारः, यकारः, अकारः, यकारः, चवर्गीययकारः. शै इति प्रत्ययः. इदानीं रूपं भवति, इदानीं सुन्दरयोगः त्व सुन्दरत्व इति रूपं भवति. सुन्दरं सुन्दरयोगः तल् सुन्दरता इति रूपं भवति. सुन्दरयोगः श्यै सौन्दर्यम् इति रूपं भवति. इदानीं सुन्दरत्वं सुन्दरता सौन्दर्यम् इति पदत्रयेण एकमेव अर्थः बोधितः भवति. तत्र भावः एव, धर्मः एव बोधितः भवति. अस्तु,
धन्यवादः. धन्यवादः.
अस्तु, हा, इतोपि किञ्चित् अग्रे सरेम इदानीं. हा, इदानीं तत्र आधारः, आदेयः अपि च अनयोः मध्ये निरूप्यनिरूपकभावः. इदानीं कथं वा आधारः सिद्ध्यति, कथं वा आधेयः सिद्ध्यति, किं कः प्रत्ययस्य योजनेन एतत् सर्वं सिद्ध्यति इति एतावत्पर्यन्तम् अस्माभिः दृष्टम्. अस्तु, इतोपि किञ्चित् इदानीं तत्र सर्वे करपत्रं तत्र विशेषणविशेष्यम् इति करपत्रमस्ति किल, तत्र गच्छन्तु सर्वे.
गुणवाचकशब्दाः त्रिविधाः, एतत् विषये
तस्मात् आरभ्य पठनीयं, किन्तु तस्मात् पूर्वम् इतोपि किञ्चित् उक्त्वा ततः आरभ्य पठामः. धन्यवादः भगिनि. तत्र विशेषणविशेष्य विशेषणं विशेष्यम् इति करपत्रमस्ति, तत्र गच्छन्तु सर्वे. तत्र किञ्चित् अधोभागे आगच्छति, आरम्भात् किञ्चित् अधोभागे आगच्छति चेत् तत्र उपरिस्तरे, मध्यमस्तरे, अधमस्तरे इति एकचित्रमिव दत्तमस्ति किल, तत्र पश्यतु. इदानीं घटः अस्ति मध्यमस्तरे, मध्यमे तत्र घटः इति पदमस्ति. इदानीं घटः इति आरभ्य उपरि गमनार्थं तत्र त्व इति प्रत्ययः योजनीयः. अनेन घटत्वम् इति पदं सिद्ध्यति. घटत्वम् इति पदं सिद्ध्यति इति तु एकं, इदानीं घटत्वम् आधेयः भवति, घटः आधारः भवति, घटत्वं घटे वर्तते इति ज्ञातुं शक्यते. तत् एकं कार्यम्. इदानीं द्वितीयकार्यं भवति घटत्वम् इति आरभ्य, आधेयम् आरभ्य तत्र मतुप् प्रत्ययः योजयामश्चेत् घटत्वयोगः मतुप् तत्र घटत्ववत् इति रूपं प्रातिपदिकं सिद्ध्यति. तस्य प्रथमाविभक्तिपुल्लिङ्गरूपं भवति घटत्ववान् इति, घटत्ववान् इति, घटत्ववान् इति पुनः घटस्तरे एव, स्तरम् इत्युक्ते लेवल्, घटस्तरे एव वयं पुनः आगच्छामः. घटत्वं योगः मतुप् घटत्ववत् इति प्रातिपदिकं, तस्य पुल्लिङ्ग एकवचनरूपं भवति, प्रथमाविभक्ति एकवचनरूपं भवति घटत्ववान्. घटत्ववान् इत्युक्ते किं? घटः एव. किन्तु घटत्ववान् अपि च घटः इति पदयोः मध्ये भेदः कः इत्युक्ते, घटः इत्यनेन किं ज्ञाते ज्ञायते? अस्माकं पुरतः यद् द्रव्यमस्ति तदेव ज्ञायते. किन्तु घटत्ववान् इति वदनेन किं ज्ञायते, अधिकं ज्ञायते इत्युक्ते, घटे विद्यमानस्य धर्ममपि अस्माभिः ज्ञायते. घटत्ववान् इत्यनेन यस्मिन् यस्मिन् घटत्वम् इति धर्मः वर्तते तदेव घटत्ववान्. वयं अत्र व्यवहारे वयं एतादृशं प्रयोगं कुर्मः, धनवान् इति, यस्मिन् धनमस्ति सः धनवान्, धनिकः धनवान् इति अस्ति. तादृशं यस्मिन् घटत्वम् अस्ति तत् घटत्ववान् इति अस्ति. घटत्ववान् इत्युक्ते घटमेव. किन्तु घटत्ववान् इति शब्देन किं बोध्यते इत्युक्ते, इतोपि किञ्चित्, इतोपि किञ्चित् इत्युक्ते घटत्वं यस्मिन् अस्ति तत् घटत्ववान् इति ज्ञानं प्राप्स्यते. अस्तु, इदानीं तत्र घटः इदानीं कुत्र वर्तते? भूतले वर्तते इति इति अस्माभिः स्वीकृतम्. अतः इदानीं घटः किं भवति? पूर्वं किं घटः किम् आसीत्? घटः आधारः आसीत्. कस्य? घटत्वस्य आधारः आसीत् घटः. घटत्वम् आधेयः, घटः आधारः, पुनः घटत्ववान् आधारः इति अस्ति. इदानीं भूतले घटः अस्ति इत्यस्मिन् सन्दर्भे घटः आधेयः भवति. किमर्थं? घटः उपरि अस्ति. कस्मिन् उपरि अस्ति? भूतलस्य उपरि अस्ति इति कृत्वा घटः आधेयः भवति, भूतलम् इदानीम् आधारः भवति. इदानीं तत्र आधेयं स्वीकृत्य तत्र अधो गमनं कुर्मश्चेत्, तत्र मतुप् प्रत्ययस्य योजनं कृत्वा अधोभागे वयं अस्माभिः गम्यते चेत् तत्र रूपं किं भवति? घटः घटयोगः मतुप् घटवत् इति रूपं प्राप्नोति. इदानीं घटवत् इति कस्मिन् स्तरे अस्ति इत्युक्ते अधस्तरे अस्ति, भूतलस्तरे, भूतलस्य समानस्तरे एव घटवत् अस्ति. इदानीं घटवत् इत्यनेन किं बोध्यम् इति चेत्, भूतलमेव बोध्यं, भूतलम् अपि च घटवत् समानार्थकौ. किन्तु घटवत् इत्यनेन अधिकं किं बोध्यम् इति चेत्, केवलं भूतलं नास्ति, यस्मिन् उपरि एकः घटः अस्ति तादृशभूतलम् इति अपि अस्माकं ज्ञानं प्राप्स्यते इति अस्ति. इदानीं घटवत् इति. ओके, इदानीम् इतोपि किञ्चित् अधिकम्. इदानीं घटवत् इति पदं स्वीकुर्मः, पुनः अग्रे गच्छामः. इदानीं घटवत् इति आधारः, घटवत् इत्युक्ते किं? भूतलं. घटवत् इति आधारः, घटवत् इति पदं स्वीकृत्य तत्र पुनः त्वप्रत्ययस्य योजनं कुर्मः चेत् तत्र किं पदं लभ्यते इत्युक्ते घटवत्वं, घटवत्वम् इति धर्मः लभ्यते. घटवत्वम् इति धर्मः, यथा घटः योगः त्व घटत्वम् इति धर्मः लभ्यते, तथा एव घटवत् योगः त्व घटवत्वम् इति धर्मः लभ्यते. इदानीं घटवत्वम् इति धर्मः कुत्र वर्तते? घटवती वर्तते. घटवती इत्युक्ते घटवत् शब्दस्य सप्तमी एकवचनरूपं भवति घटवती इति. घटवत्वं कुत्र वर्तते? घटवती वर्तते. किं घटवत्? भूतलमेव घटवत् इत्युक्ते भूतलमेव घटवत्ववान् इति भवति. घटवत्ववत् इति भवति. इदानीं तत्र घटवत्वम् इति धर्मं स्वीकृत्य पुनः अधोभागे गच्छामश्चेत् मतु प्रत्ययस्य योजनेन अधोभागे इदानीं तत्र घटवत्वम् इति आधेयः इदानीम् आधारः अस्माभिः साधितव्यं चेत् तत्र घटवत्वयोगः मतुप् कुर्मश्चेत् तत्र घटवत्ववत् इति पदं सिद्ध्यति. घटवत्ववत् इति कुत्र अस्ति इति तर्हि इदानीम् आधारस्तरे अस्ति. घटवत्ववत् इत्युक्ते भूतलमेव. घटवत् भूतलं घटवत्ववत् इति पदत्रयमपि समानार्थकौ भवति. किन्तु इतोपि किञ्चित् ज्ञानम् अधिकं भवति. केवलं भूतलम् इति वदामश्चेत् यद् अस्माकं पुरतः अस्ति तदेव ज्ञानं भवति. इदानीं तस्मिन् उपरि घटवत् इति वदामश्चेत् केवलं भूतलम् इति घटवत् भूतलम् इति वदामश्चेत् तत्र केवलं भूतलम् इति नास्ति, यस्मिन् उपरि घटः अस्ति तादृशभूतलम् इति ज्ञानं प्राप्स्यते. इदानीम् इतोपि अग्रे गत्वा घटवत्ववत् इति अहं वदामि चेत् तत्र कीदृशबोधः जायते इत्युक्ते लोके यानि भूतलानि सन्ति यस्मिन् नो चेत् येषु घटाः वर्तन्ते तानि सर्वाणि घटवत्ववत् इति पदेन सूचितानि भवन्ति. अहं पुनः वदामि, घटवत् अपि च घटवत्ववत् इत्यनयोः मध्ये भेदः कः इत्युक्ते घटवत् इति पदेन मम पुरतः यत् भूतलम् अस्ति यस्मिन् उपरि एकः घटः अस्ति तदेव सूचितं भवति घटवत् इति पदेन. किन्तु यदा घटवत्ववत् इति अहं वदामि तदा किं बोध्यते इत्युक्ते अनेन पदेन किं बोध्यते इत्युक्ते लोके यानि भूतलानि सन्ति यस्मिन् येषु घटाः वर्तन्ते तानि सर्वाणि भूतलानि अस्मिन् पदे अन्तर्भूतं भवति इति अस्ति. इति तत्र आधारादेयभावः अपि च तत्र अधोगमनार्थं तत्र त्वप्रत्ययस्य योजनम् अधः उपरि गमनार्थं त्वप्रत्ययस्य योजनम् अधोगमनार्थं तत्र मतुप्रत्ययस्य योजनम् अनेन किं सिद्ध्यति तत्र योजनेन इतोपि अधिकज्ञानं किं भवति इति एतत् सर्वं मया उक्तम्. अस्मिन् विषये कस्यापि प्रश्नः वर्तते वा?
महोदय प्रश्नः अस्ति.
हा वदतु भगिनि.
यदि वयं घटवत् अथवा भूतलं घटवत्ववत् वदामश्चेत् त्रयः शब्दाः अपि एकम् एव अर्थं बोधयति वा? अथवा घटवत् भूतलम् इति वदामश्चेत् घटवत् इति विशेषणं भूतलम् इति विशेष्यं तादृशम् आगच्छति वा?
हा इदानीं तस्मिन् विषये मया न किमपि उक्तम्. एतावत्पर्यन्तं मया किम् उक्तं तत्र बोधः अस्ति किल. इदानीमेव तत्र विशेषणं विशेष्यम् इत्यस्मिन् विषये अहम् आगच्छन् अस्मि.
अस्तु महोदय, धन्यवादः.
अस्तु अस्तु. अन्येषां किमपि प्रश्नः अस्ति वा? अस्तु. इदानीं तत्र विशेष हा वदतु भगिनि.
तत्र भवान् उक्तवान् घटवत्वत् इति भूतले सर्वाणि वस्तूनि सन्ति चेत् एतत् मध्ये अपि अस्ति, एतत् किमर्थं साध्यं? घटवत्वत् एतत् मध्ये घटः परन्तु न तु घटवत् एतत् धर्मः एव अस्ति खलु, एतत् मध्ये किमर्थं साध्यं सर्वाणि भूतानि?
न न, सर्वाणि भूतानि भूतानि इति नास्ति, भूतलानि, यानि भूतलानि. इदानीं चिन्तयतु, तत्र मम गृहे भूतलम् अस्ति, तस्मिन् उपरि एकः घटः अस्ति. भवत्याः गृहे अपि भूतलम् अस्ति, तस्मिन् उपरि अपि एकः घटः अस्ति. इदानीम् अस्माकं वर्गे ये सन्ति तेषां गृहे अपि भूतलानि सन्ति, तस्मिन् उपरि तेषु उपरि अपि घटाः सन्ति इति चिन्तयतु. इदानीं तत्र प्रत्येकं भूतलं घटवत् अस्ति. मम गृहे यत् यत् भूतलम् अस्ति, यस्मिन् उपरि घटः अस्ति, तदपि घटवत्. भवत्याः गृहे यत् यद् भूतलम् अस्ति, यस्मिन् उपरि घटः अस्ति, तदपि घटवत् इति अस्ति. इदानीं तादृश इदानीम् एतादृश भूतलानां मध्ये एकः जातिः अस्ति, धर्मः अस्ति. तत् किम् इत्युक्ते घटवत् योगः त्व, घटवत्त्वम् इति धर्मः अस्ति किल. हा, घटवत्त्वम् इति धर्मः, सजातीयधर्मः अस्ति. मम गृहे अपि अस्ति, भवत्याः गृहे अपि अस्ति, सर्वेषां गृहे अपि अस्ति. लोके यानि भूतलानि सन्ति, यस्मिन् घटाः वर्तन्ते, तानि सर्वाणि तेषु सर्वेषु घटवत्त्वम् इति धर्मः अस्ति. भूतले घटवत्त्वम् इति धर्मः अस्ति. इदानीं तादृशभूतलानि मया वक्तव्यम् इति चेत्, तत्र घटवत्त्वं योगः मतुप् कृत्वा, तत्र घटवत्त्ववत् इति यदा अहं वदामि, तदा सर्वाणि भूतलानि तस्मिन् शब्दे अन्तर्भूतं भवति यस्मिन् घटाः वर्तन्ते. इदानीं घटवत् इति अहं वदामि चेत् यद् भूतलं मम गृहे अस्ति तदेव वक्तं भवति. घटवत्त्ववत् इति अस्ति इति यदि अहं वदामि, तत्र मम गृहे यद् भूतलमस्ति यस्मिन् घटः अस्ति, भवत्याः गृहे यद् भूतलमस्ति यस्मिन् घटः अस्ति, सर्वेषां गृहे वा यत्किमपि वा सर्वेषु भूतलेषु यत्र यत्र घटाः वर्तन्ते तत्र सर्वत्र घटवत्त्वम् अस्ति इति धर्मः अस्ति इति कृत्वा, घटवत्त्ववत् इत्यनेन तानि सर्वाणि अन्तर्भूतानि भवन्ति, तानि सर्वाणि भूतलानि घटवत्त्ववत् इति शब्दे अन्तर्भूतं भवति इत्यतः एव मया उक्तम्. अतः तदेव भेदः, भूतलं घटवत् घटवत्त्ववत् इत्यनयोः शब्दयोः मध्ये एतेषां शब्दानां मध्ये भेदः, अर्थभेदः एव एतदेव. किन्तु सर्वे किं द्रव्यं बोधयति इत्युक्ते सर्वे भूतलमेव बोधयति, सर्वे शब्दाः भूतलमेव बोधयति, किन्तु इतोपि किञ्चित् ज्ञानं भवति इति अस्ति. अस्तु, इतोपि किञ्चित्, हा धन्यवादः भगिनि. इतोपि किञ्चित् अग्रे, इदानीं विशेषणं विशेष्यम् इत्यस्मिन् विषये, तदेव अस्माकं प्रकृतविषयः. एतावत्पर्यन्तं यत् मया उक्तं तत् उपोद्घातरूपेण येषां ज्ञानं ज्ञास्ति, ये आरम्भतः वर्गे न आसन् तेषां कृते मया उक्तम्. अन्येषां कृते प्रायः स्मारकम् अभवत् इति मम विश्वासः. इदानीं विशेषणं विशेष्यम् इति स्वीकुर्मः. तत्र विशेषणं कुत्र वर्तते? विशेष्ये वर्तते. यथा घटः भूतले वर्तते, यथा नीलः इति गुणः घटे वर्तते, यथा पतनम् इति क्रिया कन्दुके वर्तते, तदा विशेषणं विशेष्यं विशेष्ये वर्तते. इत्युक्ते इदानीं विशेषणविशेष्ययोः मध्ये कः भावः अस्ति, कोऽपि वदति वा? विशेषणम्
चतुरः बालकः अस्ति अत्र बालकः विशेष्यं चतुरः विशेषणम्
हा सत्यम् इदानीं तयोः मध्ये कः कीदृशभावः कीदृशसम्बन्धः अस्ति इतोपि उक्तवान् प्रायः रघुपतिमहोदयेन उक्तं
हा महोदय आधाराधेयभावः
सत्यं सम्यक् आधार आधेयभावः अस्ति किमर्थम् एतत् सर्वं मया उपोद्घातरूपेण गभीरतया उक्तम् इत्युक्ते तदेव इदानीम् अस्माकं विषयः विशेषणं विशेष्यम् इति विशेषणं विशेष्यम् इति यदा अस्माभिः श्रूयते तदा अस्माकं मनसि किं स्मरणं भवेत् इत्युक्ते यत्र यत्र विशेषणं विशेष्यम् इति वदामः तत्र तत्र आधारादेयभावः तयोः मध्ये अस्ति इति अस्माकं मनसि स्मरणं भवेत् विशेषणं कुत्र अस्ति विशेष्ये अस्ति विशेष्ये अस्ति इति चिन्तनं भवेत् तत्तु एकम् इदानीं द्वितीयं विशेषणस्य कार्यं किम् इत्युक्ते अन्येभ्यः वस्तुभ्यः पृथक्करणमेव विशेषणस्य कार्यं विशेषणस्य कार्यम् इदानीं तत्र बहवः वस्तूनि बहूनि वस्तूनि क्षम्यतां तत्र किञ्चित् संस्कृतभाषायां कथं वक्तव्यम् इति किञ्चित् भ्रमः जातः मयि बहूनि वस्तूनि अस्माकं पुरतः अस्ति इति चिन्तयतु अहं भवन्तं वदामि तत्र घटः आनयतु इति अहं वदामि भवान् घटः जानाति इदानीं चिन्तयतु बहूनि वस्तूनिषु तेषु मध्ये बहवः घटाः सन्ति इति चिन्तयतु तत्र नीलवर्णघटाः सन्ति घटः अस्ति पीतवर्णघटः अस्ति हरितवर्णघटः अस्ति श्वेतवर्णघटः अस्ति कृष्णवर्णघटः अस्ति इति चिन्तयतु इदानीं तत्र घटः आनयतु इति वदनेन भवान् किं करोति तत्र दृष्ट्वा किं घटं मया आनेतव्यम् इति पुनः पृच्छति अहं वदामि इदानीं तत्र श्वेतवर्णघटः आनयतु श्वेतः श्वेतघटः आनयतु इति वदनेन तत्र बहवः घटाः सन्ति तेषां वर्णमपि बहु अस्ति किन्तु तेषु एकं घटं स्वीकृत्य भवान् आगच्छति किं घटं श्वेतघटम् आनयच्छति इदानीं श्वेत इति विशेषणं घटः इति विशेष्यं विशेषणेन मया किं साधितम् इत्युक्ते अन्येभ्यः वस्तुभ्यः अन्येभ्यः घटेभ्यः एकस्य घटस्य पृथक् करणं मया कृतम् अतः भवान् तत्र श्वेतवर्णघटः आनीतः मया आनीतः अस्ति अतः विशेषणस्य कार्यं किम् इत्युक्ते अन्येभ्यः वस्तुभ्यः पृथक्करणमेव विशेषणस्य कार्यम् इति अस्माभिः गतवर्गे बोधितं पुनः इदानीं विशेषणं विशेष्यम् इति तस्य अर्थः कः इत्युक्ते विशेषणम् इदानीं श्वेतं श्वेतः घटः श्वेतं श्वेतः घटः इति अस्ति इदानीं तत्र श्वेतः घटः इत्यत्र श्वेतः इति विशेषणं घटः इति विशेष्यम् इदानीं घटः इति विशेष्यम् इति मया उक्तं किन्तु घटः इति पदं विशेष्यं नास्ति यद्वस्तु अस्माकं पुरतः अस्ति तदेव विशेष्यं भवति पुनः श्वेतः इति विशेषणम् इति मया उक्तं श्वेतः इति पदं विशेषणं नास्ति किन्तु किं विशेषणम् इत्युक्ते यद्वर्णः अस्माभिः दृश्यते साक्षात् दृश्यते तदेव विशेषणं भवति इति साक्षात् यदस्मात् पुरतः अस्ति तदेव विशेषणं विशेष्यं भवति चेत् इदानीं पदद्वयं किं भवति श्वेतः इति पदं किं भवति इत्युक्ते विशेषणवाचकपदं भवति, विशेषणस्य संज्ञा, वाचकम् इत्युक्ते संज्ञा, नाम, नेम्, यथा मम नाम शुकवनं विस्तीयति इति अस्ति, तादृशं श्वेतः इति वर्णस्य नाम वाचकपदं भवति श्वेत, श्वेतः इति पदम्, अतः श्वेतवर्णस्य वाचकपदं भवति श्वेतः इति पदम्, अतः विशेषणवाचकपदं भवति श्वेतः इति पदम्। एवमेव घटः इति पदं शब्दं विशेष्यवाचकपदं भवति इति अस्ति अस्माभिः अधीतं गतवर्गे, इति एतावत्पर्यन्तं तत्र अस्माभिः अधीतम्। इदानीम् अग्रे गन्तुं शक्यते। तत्र गुणवाचकशब्दाः त्रिविधाः इति आरभ्य अस्माभिः पठनीयम्। तत्र आण्ड्रे महोदय, भवान् आरब्धुम् इच्छति वा गुणवाचकशब्दाः त्रिविधाः इति?
आं भो, आगच्छामि। तत्र गुणवाचकशब्दाः त्रिविधाः, नाम ये गुणविषये वदन्ति ते, प्रथमः तावत् केवलं गुणवाचकः यथा शक्तिः, श्रद्धा, बलं, धैर्यं, श्रमः, भयं, गुणम् एव वदन्ति। द्वितीयं केवलं गुणवाचकः, तत्र केवलं गुणवाचकः यथा उन्नतः, विशालः, उत्तमः, सुन्दरः, गुणवात् वाचकः एव। ततः परं गुणवाचकाः अपि भवन्ति, गुणवाचकाः अपि भवन्ति, गुणीवाचकाः अपि भवन्ति, यथा शुक्लः, नीलः, रक्तः, मधुरः, आम्लः, कटुः। ओके, ततः परं
हा पठतु महोदय, इतोपि अग्रे पठतु।
इदानीं तेषां प्रथमं केवलं गुणवाचकशब्दाः, एभिः शब्दैः गुणविषये एव सूचना प्राप्यते, गुणस्य आश्रयस्य विषये न कोऽपि सूचना। शक्तिः इति अनेन शब्देन केवलं शक्तिः इति गुणः उच्यते, इयं शक्तिः कुत्र अस्ति, कस्य अस्ति, कस्मिन् अस्ति, शक्तिशब्देन एतादृशी न कापि सूचना लभ्यते।
हा, अत्र एतावत्पर्यन्तं किञ्चित् वदतु अस्मिन् परिच्छेदे, प्रथम तत्र केवलं गुणवाचकशब्दाः,
इदानीं केवलं गुणवाचकशब्दाः, तत्र ये शब्दाः गुणम् एव बोधयन्ति ते शब्द गुण केवलं गुणवाचकः शब्दः इति अस्माभिः तत्र व्यवह्रियन्ते, यथा शक्तिः वा अथवा श्रद्धा, तत्र अन्यत् उदाहरणं दत्तम्, अथवा बलं, धैर्यम्, इमानि पदानि सर्वाणि केवलं गुणं बोधयन्ति। इदानीं गुण यथा अर्थात् धैर्यं, श्रमः, श्रद्धा, शक्तिः, यथा इमे सर्वे गुणाः सन्ति, ते तत्र कुत्र सन्ति, कथां तत्र सन्ति, तत्सर्वम् अस्माभिः न ज्ञायते। शक्तिः वदामः इति चेत् तर्हि केवलं शक्तिः इति कश्चन गुणः अस्माभिः अवगम्यते, तावदेव अवगम्यते, न किञ्चित् अधिकं।
सम्यक्, अतः एव केवलम् इत्युक्तं। किमर्थं केवलम् इत्युक्ते इति चेत् तत्र शक्तिः इत्यनेन तादृशगुणः एव बोध्यते, किन्तु कुत्र शक्तिमान् कः, शक्तिः कुत्र अस्ति इति न ज्ञायते, तत्र बोधः न जायते। शक्तिः इति वदनेन, केवलं शक्तिः इति वदनेन, तत्र शक्तिः कुत्र अस्ति, कस्य शक्तिः अस्ति इति तादृशज्ञानं न बुध्यते इति कृत्वा तत्र केवलगुणवाचकशब्दाः इति तत् प्रथमश्रेणी। अत्र अस्माकं शीर्षकं किं गुणवाचकशब्दाः त्रिविधाः, तेषु प्रथममस्ति केवलं गुणवाचकशब्दाः। अस्तु, धन्यवादः आण्ड्रे महोदय। इदानीं मेहुल् महोदय द्वितीयं पठति वा?
सुमनं महोदय,
हा वदतु मुरळी महोदय।
पटस्य विशेषणं दत्त नम्बर् संख्या किं पञ्चः
तत्र भवान् प्राप्तवान् किल मेल् प्राप्तवान् किल
अस्ति
तत्र तत्र गत्वा हैपर् लिङ्क् अस्ति विशेषणं विशेष्यम् इति अस्ति
अस्ति तत्र
अधोभागे आगच्छतु किञ्चित् अधोभागे आगच्छतु
पेज् त्रि
पेज् त्रि
प्रायः भवान् प्रिण्ट् औट् कृत्वा स्थापितं वा हा हा प्रायः
केवलं गुणवाचकशब्दः अर्थस्य
तदेव 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 तदेव
धन्यवादः
इदानीं मेहुल् महोदय द्वितीयं तत्र द्वितीयं सर्वं पठित्वा तत्र किञ्चित् वदतु
अस्तु अस्तु द्वितीयमस्ति केवलं गुणिवाचकशब्दाः येषां विषये बहूनां भ्रमो भवति यतोहि एकदृष्ट्या गुणिवाचकाः एव अपरया दृष्ट्या केवलं गुणिवाचकः इति वक्तुं न शक्नुमः यथा उन्नतशब्दः उन्नतः इत्युक्तौ औन्नत्य इति गुणविशिष्टः औन्नत्यगुणः यस्मिन् अस्ति तादृशः कश्चन सुन्दरः इत्युक्तौ सौन्दर्यं यस्मिन् अस्ति तादृशः कश्चन एते गुणविशिष्टगुणिवाचकाः नाम तेन गुणेन युक्तं गुणिनं बोधयति
महोदय तावत्पर्यन्तं किञ्चित् उक्त्वा तदनन्तरं पुनः पठामः किञ्चित् वदतु
अत्र द्वितीय गुणि वाचकशब्दः इति तस्य विवरणम् अत्र दत्तमस्ति अत्र गुणिवाचकशब्दः शब्दाः विषये तत्र भ्रमः भवति किमर्थम् इत्युक्ते तत्र एकदृष्ट्या गुणिवाचकाः शब्द एक अर्थः अस्ति परन्तु अपरया दृष्ट्या केवलं गुणिवाचकः इति वयं न वक्तुं शक्नुमः किमर्थम् इत्युक्ते तत्र एकः उदाहरणं दत्तमस्ति उन्नतशब्दः अत्र उन्नतशब्द यदि वयं नयामः चेत् तत्र औन्नत्य इति एकं गुणः अस्ति तत्र औन्नत्यगुणः यस्मिन् अस्ति तादृश एकः कश्चनपि पदार्थः अस्ति तस्य नाम वयं उन्नतवृक्षः इति वयं वक्तुं शक्नुमः अपि च तत्र सुन्दरः यदा अन्यस्मिन् उदाहरणे सुन्दरः इत्युक्ते सौन्दर्यं कुत्र अस्ति तादृशः कश्चन पदार्थः अस्ति अतः एकदृष्ट्या गुणिवाचकः इति शब्दश्च अर्थः अस्ति अत्र गुणविशिष्टगुणिवाचकः इति एकम् अर्थम् अतः तस्य अर्थः इत्युक्ते गुणेन युक्त यः पदार्थः अस्ति तत् पदार्थस्य अपि च तस्य बोधनम् अत्र वयं प्राप्नोति अतः गुणविशिष्टगुणिवाचकः इति एकम् अर्थमस्ति
सत्यं तत्र यदा यदा एकनिमिषं किञ्चित् इतोपि किञ्चित् अहं वदामि तदनन्तरं भवान् पठतु इदानीं तत्र घटवत् इति मया उक्तं किल घटवत् भूतलम् इत्यत्र घटवत् इति विशेषणम् अस्ति भूतलम् इति विशेष्यम् अस्ति इदानीं घटवत् इति पदेन किं बोध्यम् इति चेत् यः पदार्थः यस्मिन् उपरि घटः अस्ति तत्र घटः योगः मतुप् इत्यनेनैव घटवत् इति शब्दम् अस्माभिः लब्धम् इति कृत्वा घटवत् इति शब्देन तत्र किं बोध्यम् इत्युक्ते यस्मिन् उपरि घटः अस्ति तादृशघटविशिष्ट किमपि वस्तु इति घटवत् इति शब्देन बोध्यं भवति अपि च भूतलम् इति अपि सूचयति इदानीं घटवत् इति शब्दं घटः न बोधयति किन्तु यस्मिन् घटः अस्ति तदेव बोधयति आधारः एव बोधयति गुण घटवत् इति शब्दः आधारः एव बोधयति न तु आदेयः आदेयः अत्र किं घटः आधारः किं भूतलं घटवत् इति शब्देन भूतलमेव बोध्यं भवति न तु घटः किन्तु केवलं भूतलम् इति नास्ति घटविशिष्टभूतलम् इति बोधः जायते अतः गुणविशिष्टगुणि घटविशिष्टभूतल भूतलवाचकशब्दः भवति घटवत् इति एवमेव गुणविशिष्टगुणि गुण इत्युक्ते विशेषणं गुणि इत्युक्ते विशेष्यं गुणविशिष्टगुणिवाचकाः इदानीम् अग्रे पठतु महोदय तत्र इतोपि किञ्चित् महोदयेन दत्तं भवानेव पठतु
उन्नतः अत्र औन्नत्यं यः गुणः तादृशगुणेन युक्तं यं कमपि पदार्थं गुणिनं बोधयति यथा उन्नतः वृक्षः इत्युक्ते कश्चन वृक्षः यः औन्नत्ययुक्तः अस्ति अत्र एकम् उदाहरणं दत्तमस्ति उन्नतः तत्र उन्नतः इत्युक्ते तस्य अर्थः किं तर्हि तत्र औन्नत्यम् इति एकं गुणमस्ति तादृशगुणेन युक्तं यः पदार्थः अस्ति तत् पदार्थस्य बोधनम् अत्र गुणविशिष्टगुणिवाचकाः शब्देन वयं ज्ञातुं शक्नुमः अतः उन्नतः वृक्षः इति एकम् उदाहरणमस्ति तत्र कश्चन वृक्षः अस्ति तत् उन्नत् अस्ति तत् वृक्षः औन्नत्ययुक्तः अस्ति अतः उन्नतः इति शब्देन तत् वृक्षस्य वयं ज्ञानं प्राप्तुं शक्नुमः अतः उन्नतः इति गुणविशिष्टगुणिवाचकः शब्दः अस्ति
हा किन्तु अत्र पश्यतु सम्यक् सम्यक् तत्र उन्नतः वृक्षः इदानीं वृक्षः उन्नतः वृक्षः इति पदद्वयं वदति चेत् तत्र उन्नतः इति शब्देन वृक्षः इति गुणि ज्ञातुं शक्यते इदानीं पश्यतु उन्नतः बालकः इति वदामश्चेत् तत्र उन्नतः इति शब्देन वृक्षः न बोध्यते किन्तु बालकः एव बोध्यते इति कृत्वा तत्र उन्नतः इति शब्दः गुणविशिष्टगुणी बोधयति किन्तु कः गुणि इति बोधः न जायते यदा वृक्षः इति पदं वा नो चेत् बालकः इति पदं वा तत्र न योजयामश्चेत् तत्र कः गुणि इति बोधः न जायते किन्तु गुणि एव वदति गुणविशिष्टगुणि एव तत्र वदति इति अस्ति सम्यक् महोदय धन्यवादः इदानीं भानुचैतन्यमहोदय अग्रे पठति वा प्रश्नः इति हा वदतु भगिनि
गुणः केवलं गुणः इति चेत् तत्र उदाहरणम् उदाहरणार्थे शक्तिः इति दत्तवन्तः
सत्यम्
इति चेत् तत्र स्वयं गुणः अतः एव केवलं गुणः इति तत्र मुद्रणे अनन्तरं केवलं गुणि इति चेत् तत्र गुणि इत्युक्ते यस्मिन् गुणः अस्ति सः गुणि परं पूर्वं केवलं गुणः इत्युक्ते शक्तिः स्वयं गुणः अत्र किञ्चित् किञ्चित् उदाहरणं दातुं न शक्नोति एव न शक्ति एव स्वयं गुणः अतः केवलं गुणः
सत्यं सत्यं सम्यक्तया अवगतं भवत्या तत्र इदानीम् उन्नतः इत्यनेन औन्नत्यम् इति गुणः यस्मिन् अस्ति औन्नत्यम् इति एव गुणः तादृशगुणः यस्मिन् अस्ति तादृशद्रव्यमेव उन्नतः इति पदेन बोधितम् अस्ति इति कृत्वा तत्र केवलं गुणिवाचकशब्दः इति उक्तम् उन्नतः इति शब्देन यदा कदापि इदानीं तत्र घटे नीलवर्णः अस्ति इति वदामः किल तत्र आदेर आदेयभावः सिद्ध्यति साक्षात् भूतले घटः अस्ति तत्रापि आधारादेयभावः अस्ति इदानीं तत्र वृक्षे उन्नतः अस्ति इति यदा कदापि न वक्तुं शक्यते यथा भूतले घटः अस्ति यथा घटे नीलवर्णः अस्ति तादृशं वृक्षे उन्नतः अस्ति इति यदा कदापि न वक्तुं शक्यते तादृशं वदामश्चेत् तत् दोषाय वृक्षे औन्नत्यम् अस्ति इति वदामश्चेत् तत्र आधारादेयभावः सिद्ध्यति किन्तु उन्नतः इति शब्दः किं बोधयति इत्युक्ते आधारः एव बोधयति उन्नतः इत्युक्ते आधारः एव तत्र वृक्षः इत्यनेनापि आधारः एव अतः एव वृक्षे उन्नतः अस्ति इति यदा कदापि न वक्तुं शक्यते इति कृत्वा एव केवलं गुणिवाचकशब्दः इति श्रेण्याम् उन्नतः इति तादृशशब्दाः आगच्छन्ति उन्नतः विशालः उत्तमः सुन्दरः इति तादृशशब्दाः आगच्छन्ति. सम्यक् भगिनि. अस्तु, इदानीं भानुचेतिनि महोदय अग्रे पठतु.
मया प्राप्तम् एव सम्यक् खलु व्याकरणरीत्या. मया प्राप्तं
मया प्राप्तं सम्यक्
मया प्राप्तः नास्ति
मया तत्र न न प्राप्तः इति तत्र कर्मपदं किम् इति द्रष्टव्यं. तत्र त्रीणि रूपाणि अपि भवितुम् अर्हति. ज्ञानं मया
मया इति तत्र इष्टप्रत्ययम् एव आगन्तव्यम् इष्टप्रत्ययं मया
सत्यं
तत्र इष्टप्रत्ययम् आगन्तव्यम्. अतः मया प्राप्तम् एव तत्र आगच्छति खलु मया प्राप्तः न.
एकनिमिषं तस्मिन् विषये अहं वदामि. तत्र तप्रत्ययः प्राप्तम् इति पदं प्राप्त इति प्रातिपदिकं तप्रत्ययं योजयित्वा लब्धं. तत्र तप्रत्ययं किं सूचयति इत्युक्ते कर्म एव सूचयति न तु कर्ता. अतः कर्ता तृतीयायां भवति मया इति. किन्तु इदानीं कर्मपदं किम् इति द्रष्टव्यं. मया बोधः प्राप्तम् इति वदामि चेत् तत्र दोषाय मया बोधः प्राप्तः इति वक्तव्यं. मया ज्ञानं प्राप्तं मया विद्यालया प्राप्ता इति वक्तव्यं. तत्र कर्मपदं यस्मिन् लिङ्गे अस्ति तस्मिन्नेव लिङ्गे तत्र तप्रत्ययरूपमपि भवेत्. अतः इदानीं मया प्राप्तः इति यदा मया इति यदा अहं वदामि तदा तत्र बोधः प्राप्तः इति अवगन्तव्यं. तत्र प्राप्तः इत्यनेन बोधः इति मया न उक्तं तथापि तादृशं स्वीकर्तुं शक्यते इति. सम्यक् सम्यक् भगिनी, भवत्याः चिन्तनं सम्यक् अस्ति. तादृशमेव चिन्तनीयं. तत्र केवलम् अत्र पश्यन्तु सर्वे एकं पुनः एकवारं एतद् वदामि. इदानीं न्यायं वयं पठन्तः स्मः किन्तु अस्माकं लक्ष्यं किम् इत्युक्ते न्यायस्य पठनम् इति नास्ति. न्यायं केवलं माध्यमं. न्यायमाध्यमेन अस्माकं लक्ष्यं किम् इत्युक्ते संस्कृतभाषायाः अभिवर्धनं तदेव. अतः एतादृशप्रश्नाः अपि अत्र समीचीनाः एव. एतादृशप्रश्नाः अपि करणीयाः एव. सम्यक् भगिनि. इदानीं भानु भानुचन्द्र
पूर्वं वर्गः खलु गुरुजी
सत्यं सत्यम्. अस्तु अग्रे गच्छामः. भानुचेति महोदय प्रश्नः इति आरभ्य पठतु. ओ शृणोति वा भवतु. इदानीं सीमा भगिनी भवती पठतु.
आं महोदय, प्रश्नः: द्विवारं वदनस्य का आवश्यकता? गुणविशिष्टगुणिवाचकः गुणि इत्युक्ते यस्मिन् स गुणः अस्ति एव, तर्हि पुनः गुणविशिष्ट इत्यनेन को लाभः? उत्तरं: वस्तुतः न अपेक्षितं, किन्तु स्पष्टतार्थम् उच्यते तावदेव. गुणि इत्यनेन गुणविशिष्ट इत्येव अर्थः. गुणः अस्मिन् अस्ति इत्येव गुणि. कश्चन गुणः अस्ति, तादृशगुणेन विशिष्टम् एकं पदार्थं बोधयति. तथापि भ्रमस्य दूरीकरणे महान् लाभः. कथम् इति अग्रे वक्ष्यते. तावत्पर्यन्तं महोदय. अत्र उन्नतः वृक्षः एवं वृक्षे औन्नत्यम् अस्ति. अतः अत्र द्विवारं वदनस्य का आवश्यकता अस्ति? गुणविशिष्टः गुणिवाचकः तत् तस्मिन् तैः शब्दैः गुणि इत्युक् गुणि पदार्थस्य बोधः भवति. यतोहि गुणि इत्युक्ते यस्मिन् गुणः वर्तते, एवं गुणविशिष्टः गुणिवाचकः पदैः अपि तदेव सूचितं भवति. तर्हि गुणविशिष्टः इति इति पदेन कः लाभः अस्ति, सः प्रश्नः अस्ति. उत्तरमस्ति वस्तुतः द्वौ समानार्थकौ सन्ति, किन्तु गुणविशिष्टः गुणिवाचकः पदैः स्पष्टता अधिका भवति. अतः तस्य प्रयोगः अस्ति. तावदेव महोदय.
हा सम्यक् सम्यक्. तत्र इदानीम् उन्नतः इति शब्दे, उन्नतः इति शब्देन किं बोधितम् अस्ति इत्युक्ते गुणि एव बोधितमस्ति. तत् गुणिवाचकशब्दः एव, किन्तु केवलं गुणिवाचकशब्दः इति नास्ति. तत्र औन्नत्यम् इति गुणः यस्मिन् वर्तते, औन्नत्यगुणविशिष्टगुणि इति अपि ज्ञातम् अस्माभिः ज्ञायते इति कृत्वा तत्र गुणविशिष्टगुणि गुणविशिष्टगुणिवाचकः इति अस्ति. अत्र प्रश्नः कः इत्युक्ते गुण गुणि इति तत्र स्थूलाक्षरैः लिखितं किल, किमर्थं तत्र द्विवारम् अस्ति इति, तत्र स्पष्टतार्थम् इति. इदानीं स्पष्टता इति पदं केन प्रत्ययेन प्राप्तम् इति भवती अवगच्छति वा? स्पष्टता
तल् प्रत्ययः.
सम्यक् सम्यक्. तल् इति इदानीं तत्र त्वप्रत्ययस्य योजनेन किं रूपं भवति? हा सम्यक्, स्पष्टत्वम् इति रूपं भवति. तल् प्रत्ययस्य योजनेन स्पष्टता इति रूपं भवति. तत्र स्पष्टता भवति इति कृत्वा तत्र गुणविशिष्टगुणिवाचकः इति महोदयेन उक्तं, तथापि तत् केवलं गुणिवाचकशब्दः एव इति अवगन्तव्यम्. केवलं गुणिवाचकशब्दः किमर्थम् इत्युक्ते वृक्षे उन्नतः अस्ति इति यदा कदापि न वक्तुं शक्यते इत्यतः केवलं गुणिवाचकशब्दः, न तु गुणवाचकशब्दः, न तु उभयवाचकशब्दः अपि. वृक्षे औन्नत्यम् अस्ति इति एव साधुः, वृक्षे उन्नतः अस्ति इति वदामश्चेत् तद्दोषाय इति कृत्वा उन्नतः इति शब्दः केवलं गुणिवाचकशब्दः इति अस्ति. सम्यक् भगिनि.
अत्र गुणविशिष्टगुणिवाचकः पदस्य अर्थः अस्ति औन्नत्यं विशिष्टवृक्षः, एवं गुणि अस्ति उन्नतः वृक्षः.
सत्यं, बहु सम्यक्. औन्नत्यविशिष्ट वृक्षवाचकशब्दः भवति उन्नतः इति शब्दः. सम्यक्, हा धन्यवादः भगिनि. इदानीं रघुपतिमहोदय, भवान् अग्रे पठति वा तृतीयं गुणवाचकाः इति?
आं महोदय. गुणवाचकाः अपि गुणिवाचकः अपि गुणिवाचकाः अपि एते शब्दाः गुणवाचकत्वेनापि प्रयुज्यन्ते गुणिवाचकत्वेनापि प्रयुज्यन्ते. यथा शुक्लः, कृष्णः, नीलः इति शब्दाः. शुक्लः गुणवाचकः इत्युक्ते वैट् कलर् इति वक्तव्यं चेत् शुक्लः अस्मिन् अर्थे पुल्लिङ्गे एव प्रयोक्तव्यम्. शुक्लवर्णेन युक्तः कश्चन इति चेत् गुणिवाचकः अस्मिन् अर्थे त्रिषु लिङ्गेषु शुक्लः घटः, शुक्ला शाटिका, शुक्लं पुष्पम्. रसवाचकशब्दाः अपि तथा लवणः, आम्लः, मधुरः, कटुः, तिक्तः, कषायः. एते शब्दाः गुणवाचकाः चेत् नियतलिङ्गाः पुल्लिङ्गे एव भवन्ति. यथा मधुरः गुणवाचकः स्वीट् टेस्ट् इत्यर्थः, पुल्लिङ्गे एव. मधुरस्य युक्तः इति चेत् गुणिवाचकः त्रिषु लिङ्गेषु मधुरः शाकः, मधुरा शर्करा, मधुरम् ओदनम्. पूर्वं वयं दृष्टवन्तः केवलं गुणवाचकशब्दः यथा शक्तिः, श्रद्धा इति. अपरं द्वितीयं तु केवलं गुणिवाचकः उन्नतः, विशालः इति. अत्र केचन शब्दाः सन्ति ते गुणम् अपि बोधयति, गुणिनाम् अपि बोधयति. एते वर्ण अपि च रस रसवाचकशब्दाः गुणवाचकवाचकाः अपि गुणिवाचिकाः अपि यथा शुक्लः इत्युक्ते वैट् कलर् शुक्लः इत्युक्ते एतत् शब्दं गुणिन गुणम् अपि बोधयति गुणिनां गुणि गुणिम् अपि
गुणिनम् अपि बोधयति सम्यक् गुणिनम् अपि
बोधयति गुणिनाम् अपि बोधयति अपि च रसवाचकशब्दः अपि तथा एव लवणः आम्लः मधुरः अत्र लवणः इत्युक्ते लवणः गुणः अपि अस्ति लवणः गुणिनम् अपि बोधयति एते शब्दाः गुणवाचकशब्दाः नियतलिङ्गिकाः पुल्लिङ्गे एव भवति आम्लः लवणः मधुरः कटुः तिक्तः सर्वे पुल्लिङ्गे एव अस्ति
यदा यदा भवति पुल्लिङ्गे यदा भवति तत् रूपं
पुल्लिङ्गे तिक्तः गुणवाचक यदा गुणवाचकः भवति तदा पुल्लिङ्गे एव अस्ति
भवति अस्माकं विवक्षा गुणवाचकशब्दः इति गुणवाचकत्वेन अस्माकं विवक्षा अस्ति चेत् तत्र रूपं केवलं पुल्लिङ्गे एव भवति इदानीं गुणिवाचकः अस्ति चेत् तत्र रूपं किं भवति कथं भवति
गुणिवाचक अपि अस्ति चेत् त्रिषु लिङ्गेषु भवति यथा शाकः मधुरः शाकः शर्करा इति स्त्रीलिङ्गः अस्ति अतः मधुरा शर्करा अथवा ओदनं नपुंसकलिङ्गः अस्ति अतः मधुरं मोदनम् अत्र गुणिवाचकः अस्ति
सम्यक् सम्यक् इति अस्ति इति तत्र गुणवाचकशब्दाः त्रिविधाः इति अस्माभिः अधीतम् एतावत्पर्यन्तं केवलं गुणवाचकाः केवलं गुणिवाचकाः गुणवाचकाः अपि च गुणिवाचकाः इत्युक्ते उभयवाचकाः इति तादृशं भवति उभयवाचकाः अधिकाधिकं वर्णः नो चेत् तत्र रसः एतादृश पदार्थाः एव तत्र उभयवाचकाः भवन्ति नीलम् उत्पलम् इत्यत्र नीलम् इत्यनेन तत्र गुणः न बोधितः किन्तु गुणि एव बोधितः यथा उन्नतः वृक्षः तथा नीलं पुष्पं नीलम् उत्पलम् इति वदामश्चेत् तत्र नीलम् इति नपुंसकलिङ्गे अस्ति किमर्थं तत्र उत्पलम् इति गुणि नपुंसकलिङ्गे अस्ति इति कृत्वा तदपि नीलम् इति पदमपि नपुंसकलिङ्गे भवति चेत् तत्र नीलम् इति पदेन गुणः न बोधितः किन्तु गुणि एव बोधितः भवति नीलम् इति पदं गुणिनम् एव बोधयति इति मनसि भवेत् अस्तु इदानीं किञ्चित् इतोपि अग्रे सरेम तत्र रमाभाई भगिनी तत्र पठितुम् इच्छति वा अर्थस्य परिवर्तनम् इति परिवर्तनार्थम्
अहं पठामि
हा पठतु तदर्थं तद् तस्मादुपरि वक्तुं शक्यते चेत् वदतु नो चेत् तत्र अहमेव वदामि
अस्तु महोदय
कुत्र अर्थस्य परिवर्तनार्थम् इति शीर्षकमस्ति किल
अस्तु अस्तु महोदय
ततः
अर्थस्य परिवर्तनार्थं केवलं गुणवाचकशब्दः मतुवर्तकः प्रत्ययस्य संयोजनेन गुणिवाचकशब्दः निष्पन्नः यथा श्रद्धा श्रद्धावान् बलं बलवान् बलि धैर्यं धैर्यवान् संयमः संयमी उत्साहः उत्साही गुणवाचकशब्दः श्रद्धा बलं धैर्यं संयमः उत्साहः एते शब्दाः गुणवाचकशब्दाः अस्ति मतुं प्रत्यययोजनेन शब्दः परिवर्तनं भवति. श्रद्धा योगः मतुं श्रद्धावान्, बलं योगः मतुं बलवान् पुल्लिङ्गं, बली श्रीलिङ्गं, धैर्यं योगः मतुं धैर्यवान्, संयमः योगः मतु संयमी श्रीलिङ्गः, उत्साहः योगः मतु उत्साही.
बहु सम्यक् भगिनि, बहु सम्यक्. इदानीम् इतोपि किञ्चित् अहं वदामि. बहु सम्यक् भगिनि, धन्यवादाः. गुणः इत्युक्ते हा
बलि तत्र श्रीलिङ्गं बलवती बलवती खलु तत्र बलवान् बलवती बलवती
आम् बलवती इति एव भवेत्. तत्र बलि इति अहं न जानामि, तत्र बलि इति रूपं यस्य कस्यापि ज्ञानमस्ति वा? तत्र बलि इति केन प्रत्ययेन बलि इति रूपं प्राप्तम् इति?
बलि रसम् आगच्छति चेत् तत् तत्र बलवान् अस्य सप्तमी एकवचनम् अस्ति. तत्र बलि इति श्रीलिङ्गम् अस्ति, बलवती दीर्घेन आगच्छति, बलवती बलवत्.
सत्यं सत्यं, बलवत्. इदानीं बलं योगः मतु बलवत् इति प्रातिपदिकं भवति, तस्य पुल्लिङ्गरूपं भवति बलवान् प्रथम एकवचनं, स्त्रीलिङ्गरूपं भवति बलवती इति. नपुंसकलिङ्गं बलवत् इत्येव तिष्ठति.
तत्र यथा योगी इत्येवं योगी यथा पुंलिङ्ग पुंलिङ्गशब्दः योगिन् इति प्रतिपादिकात् तत्र योगी इति पुंलिङ्गरूपं भवति, तथा बलिन् बली इति पुंलिङ्गरूपमेव.
सत्यं, बलिन् इति बलिन् इति शब्दस्य प्रथम पुल्लिङ्ग एकवचनरूपं भवति बलि इति. किन्तु बलं योगः कः प्रत्ययः अनेन बलिन् इति? प्रायः इन् इति प्रत्ययः इति अस्ति इति अहं चिन्तयामि. बलयोगः इन् बलिन् इति भवति, इन् इति प्रायः तत्र तद्धितप्रत्ययः एवं वा? बलिन् इति प्रातिपद इन् इन् इनि इति प्रत्ययः अस्ति किल,
निनि वा? तत्र केचन प्रत्ययाः सन्ति
इति अहम् ऊहामेव करोमि. तत्र प्रायः निश्चयेन मया न वक्तुं शक्यते, किन्तु बलिन् इति प्रातिपदिकं, तस्य प्रथमाविभक्ति पुल्लिङ्ग एकवचनरूपं भवति बलि. एवमेव संयमी उत्साही एतत् सर्वम् अस्तु. अत्र किमुक्तं? गुणवाचकशब्देन मतु प्रत्ययस्य योजनेन गुणिवाचकशब्दः निष्पन्नः भवति इति. इदानीं गुण इत्युक्ते विशेषणं, गुणिन् इत्युक्ते विशेष्यं, गुण इत्युक्ते उपरिस्तरे अस्ति, गुणि इत्युक्ते अधमस्तरे अस्ति. इदानीम् उपरिस्तरात् अधस्तरे गन्तव्यं चेत् तत्र मतु प्रत्ययस्य योजनम् अस्माभिः करणीयम् इति अस्माभिः दृष्टम्. अतः श्रद्धा इति केवलगुणवाचकशब्दं स्वीकृत्य तत्र मतु प्रत्ययं योजयामश्चेत् श्रद्धावान् इति पुल्लिङ्गरूपं प्रथमाविभक्ति एकवचनरूपं भवति. श्रद्धावान् इति पदं कं सूचयति इत्युक्ते, यस्मिन् श्रद्धा अस्ति तादृशः एकः पुरुषः श्रद्धावान्. बलं यस्मिन् अस्ति तादृशः पुरुषः एकः, सः एव बलवान्, बली इति पदेन तत्र बोधः जातः अस्ति इति अस्ति. तत्र केवलं गुणवाचकशब्देन शब्दस्य मतु अर्थकप्रत्ययस्य संयोजनेन गुणिवाचकशब्दः निष्पन्नः भवति. सम्यक्. इदानीं मुरलीमहोदय अस्ति वा? भवान् अग्रे पठति वा?
पठामि.
द्वितीयं द्वितीयं पठतु.
एकः सन्देहः, श्रद्धा श्रद्धवान् श्रद्धवान् इति कर्ता एजेण्ट्
एजेण्ट् इति नास्ति, पुरुषः. यस्मिन् श्रद्धा अस्ति इदानीं श्रद्धा इति गुणं भवन्तम् अस्ति इति अहं चिन्तयामि. अस्ति चेत् भवान् श्रद्धावान् भवति, भवतः धनम् अस्ति चेत् भवान् धनवान् भवति, एवमेव श्रद्धा अस्ति चेत् श्रद्धावान् भवति.
श्रद्धावान्
तदेव.
केवलम् अस्तु हा गुणि गुणिवाचकशब्दः भावार्थः प्रत्ययस्य त्व तल् ष्यन् इत्यस्य संयोजनेन ष्यञ् इत्यस्य संयोजनेन गुणवाचकशब्दः निष्पन्नः यथा उत्तमशब्दस्य उत्तमत्वम् उत्तमता औन्नत्यं विशालः विशालत्वं विशालता वैशाल्यं सुन्दरः सुन्दरत्वं सुन्दरता सौन्दर्यं तदेव महोदय
तावदेव तत्र किञ्चित् वक्तुम् इच्छति वा नो चेत्
उत्तमशब्दस्य त्वप्रत्ययस्य योजनेन उत्तमत्वं भवति
हा सत्यं
तल् प्रत्यययोजनेन उत्तमता ञ् प्रत्यययोजनस्य औन्नत्यं भवति
सत्यम् इदानीं तत्र विषयः कः इदानीं तत्र उत्तमः इति शब्दः आधारः वा आदेयः वा
उत्तमः इति आदेयः न आधारः
उत्तमः इति आधारः वयं पूर्वम् उक्तवन्तः किल इदानीम् उपरि गमनार्थम् अधस्तात् उपरि गमनार्थं त्वप्रत्ययस्य योजनं कर्तव्यम् इति इदानीम् उत्तमः इति आधारः गुणि एव सूचयति हा इदानीं गुणि तत्र आधारः योगः त्व तल् श्यै इति प्रत्ययस्य योजनेन इदानीम् उत्तमत्वम् इति पदम् आधारः वा आदेयः वा मुरलीमहोदय किं वदति
उत्तमत्वम् इति आदेयः
उत्तमत्वम् इति आधेयः तत्र उत्तमत्वम् उत्तमता औन्नत्यम् इति आदेयः उत्तमः इति आधारः इदानीम् उत्तमः इति आधारः इति चेत् आधारः विशेष्यं वा विशेषणं वा
विशेष्यं
सत्यं सम्यक् उत्तमः इति आधारः आधारः अस्ति चेत् विशेष्यम् एव भवति किमर्थम् इत्युक्ते विशेषणं सर्वदा विशेष्ये भवति अतः विशेष्यं सर्वदा आधारः एव भवति विशेष्यम् आदेयः भवति इति अस्ति अत्र उत्तमः इति आधारः विशेष्यं तत्र त्व तल् श्यै इति प्रत्ययस्य योजनेन उत्तमत्वम् उत्तमता औन्नत्यम् इति रूपं भवति एवमेव विशालत्वं विशालता वैशाल्यम् एवमेव सुन्दरत्वं सुन्दरता सौन्दर्यम् इति रूपं प्राप्नोति इति अस्ति बहु सम्यक्
उदाहरणं वृक्षे औन्नत्यम् अस्ति बालके सौन्दर्यम् अस्ति
हा सौन्दर्यम् अस्ति हा वदतु भगिनि
आप्ते मध्ये बलि दीर्घः आगच्छति तत्र वर्धः इति आप्ते मध्ये अस्ति वर्धः इत्युक्ते तत्र कुमान् बलिवर्धः मया मन्यं किमर्थं तत्र बलवान् बलि इति पर्यायपदमेव
सत्यं पर्यायपदमेव अपि च द्वयमपि पुल्लिङ्गे एव अस्ति अतः एव पुमान् इति दत्तमस्ति किन्तु प्रत्ययः भिन्नः अतः एव तत्र पश्यतु महोदय कीदृशं चिन्तयित्वा लिखति इति मतुवर्तकप्रत्ययः इति लिखितं तत्र मतुप्रत्ययस्य संयोजनेन इति न लिखितं मतुवर्तक इदानीं मतुप्रत्ययमपि तत्र दत्तमस्ति अपि च इनिप्रत्ययमपि दत्तमस्ति इनिप्रत्ययमपि मतुवर्तकप्रत्ययः एव अस्मिन् अस्ति पुमान् पुल्लिङ्गः सम्यक् अस्तु इदानीं समयः अभवत् अत्र स्थगयामः सर्वेषां तत्र सौकर्यं सुलभतया ज्ञानं प्राप्तम् इति अहं चिन्तयामि किमपि वक्तव्यं वा कस्यापि प्रिया भगिनी कथमासीत् वर्गः
अवगतवती
वा
बहु सम्यक् अस्ति वा सम्यक्तया अवगमनम् अपि अस्ति महोदय
सम्यक् सम्यक् धन्यवादाः भवती आगच्छतु तत्र रामाभाई सर्वे तत्र भवन्ति चेत् द्वित्रिसप्ताहस्य अभ्यन्तरे एव इतोपि अवगमनम् इतोपि बहिः गच्छति अस्तु सर्वेषां धन्यवादाः नमस्कारश्च पुनर्मिलामः धन्यवादः